इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। निर्वाचनायोगेन लोकसभा निर्वाचनार्थं तिथयः समुद्घोषिताः। देशे षोडश लोकसभायै सप्तचरणेषु मतदानं भविष्यति। प्रथमे चरणे अप्रैल मासस्य नवदश दिनांके द्वयोत्तर एकशतम् आसनेषु, द्वितीय चरणे षड्विंशे दिनांके नवाशीतिः आसनेषु, तृतीय चरणे मई मासस्य सप्तमे दिने चतुर्णवति आसनेषु, चतुर्थे चरणे मे मासस्य त्रयोदश दिनांके षण्णवति आसनेषु, पंचमे चरणे मे मासस्य विंश्यां तिथौ नवचत्वारिंशत् आसनेषु, षष्ठे चरणे मे मासस्य पञ्चविंशे दिने सप्त पञ्चाशत् आसनेषु, अन्तिमे चरणे जून मासस्य च प्रथमे दिने सप्त पञ्चाशद् आसनेषु मतदानं भविष्यति। आन्ध्रप्रदेश सिक्किम अरुणाचलप्रदेश ओडिशा राज्येषु विधानसभा निर्वाचनानाम् अपि घोषणा निर्वाचनायोगेन कृता। राजधान्यां नवदिल्ल्याम् आयोजिते वार्तासम्मेलने मुख्य निर्वाचनायुक्तः राजीव कुमारः अवोचत् यत् निष्पक्ष मतदानाय निर्वाचनायोगेन सर्वविधाः उपायाः विधीयन्ते। ध्यातव्यं वर्तते यत् मतगणना जून मासस्य चतुर्थे दिनांके भविता। लोकसभा निर्वाचनतिथेः चतुर्षु राज्येषु च विधानसभा निर्वाचनस्य घोषणानन्तरं निर्वाचनायोगेन आदर्श आचार संहितायाः प्रावधानानि प्रभावीरीत्या नियोजयितुं दिङ्निर्देशाः प्रख्यापिताः। सर्वेषां राज्यानां मुख्यसचिवेभ्यः मुख्य निर्वाचन अधिकारिभ्यश्च लिखिते एकस्मिन् पत्रे अनेन आयोगेन लिखितं यत् दलानां भित्तिस्थापितचित्राणि लेखनकार्याणि सर्वकारीय परिसम्पत्तिषु लिखिताः सामग्र्यः च निर्वाचनस्य घोषणायाः अनन्तरमेव निष्कासितानि अपाकरणीयानि च। प्रदत्तनिर्देशेषु लिखितम् अस्ति यत् सार्वजनिक परिसम्पत्तिषु यथा रेल बसयानस्थानकेषु दलानां नियोजितानि भित्तिपत्राणि विज्ञापनपत्राणि इत्यादीनि अष्टचत्वारिंशत् होरां यावत् अपाकरणीयानि, तत्रैव निज परिसम्पत्तिषु प्रदर्शितानि सर्वाणि अनधिकृत राजनीतिक विज्ञापनानि द्विसप्तति होरां यावत् दूरीकरणीयानि इति। प्रधानमन्त्री नरेन्द्रमोदी आन्ध्रप्रदेश राज्यं प्रति यास्यति। तत्रासौ पलनाडु जनपदे एनडीए इत्येतस्य नैर्वाचनिकोपवेशने भागं ग्रहीष्यति। दलस्य राष्ट्रिय महासचिवः विनोद तावडे वार्ताहरान् सम्बोधयन् सूचितवान् यत् श्रीमोदिनः नेतृत्वे सम्भाव्यमाणम् एतद् उपवेशनं पलनाडुनगरस्य चिल्कलूरीपेटा इत्यत्र भविष्यति। टीडीपी इत्यस्य प्रमुखः एन चन्द्रबाबू नायडुः, जनसेनाप्रमुखः पवनकल्याणः च एतस्मिन् उपवेशने भागं स्वीकरिष्यति। आगामि लोकसभा निर्वाचनम् अभिलक्ष्य आन्ध्रप्रदेशे प्रथमं एनडीए इत्येतस्य नैर्वाचनिको उपवेशनम् एतद् भविष्यति। त्रीणि दलानि टीडीपी इति जनसेनादलं भारतीय जनता पार्टीति दलं च दशवर्षाणाम् अनन्तरान्तरं पारस्परिकरूपेण एकस्मिन् मञ्चे एकत्रितानि भविष्यन्ति। महिलानां क्रिकेट प्रीमियर लीग प्रतिस्पर्धायां रॉयल चैलेंजर्स बैंगलूरुदलं डेल्ही कैपिटल्स दलम् अद्य नवदिल्ल्याः अरुण जेटली क्रीडांगणे स्पर्धायाः अन्तिमचक्रे परस्परं सम्मुखीकरिष्यति। जाते शुक्रवासरे रॉयल चैलेंजर्स बैंगलूरुदलेन मुम्बई इंडियंस दलं पञ्चधावनांकैः पराजितम् आसीत्। तत्रैव बुधवासरे जातायां प्रतिस्पर्धायां डेल्ही कैपिटल्स दलं गुजरात जायंट्स दलं सप्तस्तोभैः पराजितवत् इति वार्ताः।